सर्वेभ्यो नमः, स्वागतम्। प्रथमतया वयं प्रार्थनां वदामः। वृन्दा भगिनी,
ॐ सहनाववतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः। ॐ सहनाववतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः। ॐ सहनाववतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः। श्रीगुरुभ्यो नमः, हरि ओम्।
धन्यवादः भगिनी। अस्तु, अद्य वयं गीतासोपनं पठामः। अद्य वयं एकविंशति अध्यायं कुर्मः। अस्तु, श्वः कस्य जयः इति दत्तमस्ति, इत्युक्ते किं चित्रा भगिनि? आङ्ग्लभाषायां वदतु। श्वः कस्य जयः आङ्ग्लभाषायां किम्?
श्वः इस् टुमोरो, टुमोरो हू विन्स्?
समीचीनम्। अस्तु, इदानीं लक्ष्मी भगिनी भवती अत्र पठतु। अत्र उच्चैः पठत, जानीत च। अत्र वयम् अद्य, श्वः, परश्वः, प्रपरश्वः, ह्यः, परह्यः, प्रपरह्यः पठामः। अस्तु, इदानीं लक्ष्मी भगिनी अत्र भवती पठतु।
अद्य सोमवासरः, सोमवासरः, श्वः मङ्गलवासरः, परश्वः बुधवासरः, प्रपरश्वः गुरुवासरः, ह्यः रविवासरः, परह्य शनिवासरः, प्रपरह्य शुक्रवासरः।
समीचीनम्। अत्र सोमवासरः इति किं?
सोमवासरः अच्च
मण्डे,
या सोमवासरः मण्डे।
मङ्गलवासरः
ट्यूस्डे, बुधवासरः वेन्स्डे, गुरुवासरः थर्स्डे, रविवासरः साटर्डे, रविवासरः फ्रैडे, रविवासरः
रविवासरः सन्डे,
सन्डे
अद्य रविवासरः,
यः शनिवासरः साटर्डे,
शनिवासरः विल् बि
साटर्डे,
एण्ड् शुक्रवासरः विल् बि
फ्रैडे।
समीचीनम्। अस्तु, इदानीं कथां पठामः। एकवारं पूर्णतया पठामः, अनन्तरम् एकवाक्यं पठामः। अस्तु, प्रिया भगिनी, भवती कुरुक्षेत्रे प्रथमं परिच्छेदं पठतु भवती।
Bhagni, can you give me 1 minute so I can set log out here from my phone?
Radha Bhagni bhavati patatu anantaram Priya Bhagni patati dvitiyam parichedam.
Aam Bhagni. Ekam parasangam uchchayah patata. Kurukshetre yuddham प्रवर्तमानम् एव अस्ति। कौरवाणां पाण्डवानां च पक्षे महारथाः रथिकाः योधाः अनेके मृताः सहस्रश सैनिकाः त्वगणावयावः जाताः कर्णः अपि हतः युद्धस्य षोडशदिवस चिन्ताकुलः युधिष्ठिरः एवं विषीदति. Shall I continue, Bhagini?
अत्र स्थगयतु. अस्तु, अनन्तरं प्रिया भगिनि इदानीं पठितुं शक्नोति.
हा भगिनि, आं सारि, विच् लैन् भगिनि?
अहो
अहो मम
दौर्भाग्यम्. ओके, थेङ्क् यू, सारि. अहो मम दौर्भाग्यभाग्यं अद्य दौर्भाग्यम् अद्य शुद्धस्य शोधनं युद्धस्य सारि थेङ्क् यू युद्धस्य शोधनं दिनं षोडशं दिनम् ओके सारि षोडशं दिनं ह्यः आचार्यद्रोणस्य दिवङ्गतिः परह्यः जयद्रथस्य प्राणहानिः प्रपरह्यः प्रियपुत्रस्य अभिमन्योः स्वर्गगमनं तत्पूर्वं sorry the screen is flickering a little bit sorry tatpurvam bhishma dinam pathanam shvah kasya jayah kasya parajayah na janami parashvah kasya jivanam kasya maranam na janimah परश्वः तदनन्तरं कस्य किं इति न ज्ञातं भवति सर्वस्य अस्य कारणं मम राज्याभिलाषः अहम् एव सर्वविधस्य क्लेशस्य हेतुः क्लेशस्य हेतुः अहं कथं जीवानि हा 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 इति रोदिति.
समीचीनम्. अत्र कुरुक्षेत्रे युद्धं प्रवर्तमानम् एव अस्ति इत्युक्ते किम्?
The war is happening in Kurukshetra.
In Kurukshetra, yeah.
कौरवानां पाण्डवानां च पक्षे महारथाः रथिकाः योद्धाः अनेके मृताः. सहस्रशः सैनिकाः भग्नावयवाः जाताः.
Injured. Bhagnavayava will be injured, no?
Yeah. They lost parts of the body injured.
Yeah. Astu. Anantaram. Karnaha api hataha.
Karna also died.
Yuddhasya shodashaha divasaha. समीचीनम्. चिन्ताकुलः युधिष्ठिरः एवं विषीदति.
Hmm.
sad. He's sad, I think,
right? Vishidati is thinking. Is it thinking?
Thinking or contemplating?
Contemplating, yeah.
Dictionary said depressed.
It's Vishada.
He was depressed.
Vishidati. अस्तु अनन्तरम् अहो मम दौर्भाग्यम् इत्युक्ते समीचीनम् अनन्तरम् अद्य युद्धस्य षोडशं दिनम् समीचीनं ह्यः आचार्यद्रोणस्य दिवङ्गतिः
आचार्यद्रोणस्य डेथ्
परह्यः जयद्रथस्य प्राणहानिः समीचीनं प्रपरह्यः प्रियपुत्रस्य अभिमन्योः स्वर्गगमनम्
Abhimanyu departed for the Swargaloka.
Tatpurvam Bhishmadinam Patanam.
Before that
Bhishma also
the fall of Bhishma fell.
Samichinam. श्वः कस्य जयः कस्य पराजयः न जानामि समीचीनम् परश्वः कस्य जीवनं कस्य मरणं न जानामि प्रापरश्वः तदनन्तरं कस्य कस्य किं किम् इति न ज्ञातं भवति सर्वस्य अस्य कारणं मम राज्याभिलाषः
All this is because of my greed for
Raja.
My desire for a kingdom.
Desire for
Raja.
Kingdom.
Aham eva sarvavidhasya kleshasya hetuh.
I am the cause of all the problems. Discord. Klesh means discord.
Aham katham jivani.
How do I live?
Atra prashnah santiva.
No.
Ekam abhyasam kurmaha.
सैनिकाः भग्नावयावाः जाताः वट् इस् जाताः वदि
बिकेम्
थौसण्ड्स् आफ् सोल्जर्स् वर् इञ्जर्ड् रैट् आर् इञ्जर्ड् ओके
वर् और् आर् बोत्
भग्नि
बिकेम् इञ्जर्ड् बिकेम् इञ्जर्ड् वदतु राधा भगिनि
जानामि जानीमः वाट् इस् द डिफ़रेन्स् बिट्वीन् द टु
पुनः वदतु भगिनि
न जानामि न जानीमः
अहम् एन् वयम्
अहम् एन् वयम् वन् इस् एकवचनं वन् इस् बहुवचनं अस्तु समीचीनम् अस्तु एकम् अभ्यासं कुर्मः अद्य रविवासरः श्वः कः
श्वः सोमवासरः
सोमवासरः
ह्यः कः वासरः परश्वः कः वासरः
शुक्रवासरः परश्वः
परह्यः कः वासरः प्रापरश्वः कः वासरः
प्रपरश्वः
गुरुवासरः
गुरुवासरः
प्रपरश्वः बुधवासरः
बुधवासरः
अनन्तरं प्रापरह्यः कः वासरः
गुरुवासरः
समीचीनम् प्रश्नाः सन्ति वा अत्र अस्तु न सन्ति चेत् अग्रे गच्छामः अस्तु कोष्टकात् शब्दान् चित्वा रिक्तस्थानानि पूरयत अस्तु अत्र दत्तमस्ति अद्य मङ्गलवासरः अस्तु अद्य मङ्गलवासरः अस्ति चेत् ह्यः कः वासरः
सोमवासरः
परह्यः कः वासरः
रविवासरः
रविवासरः
परह्यः कः वासरः
शुक्रवासरः
प्रपरह्यः कः वासरः
This is Mangala, this is... Wait, I lost track of the days.
Okay. So today is Tuesday.
Tuesday.
Yesterday is Monday.
Monday.
Day before and yesterday
day before
is Sunday.
Is Sunday.
Sunday.
And Saturday. Paraprahe is Saturday.
Shanivasara.
Samichina. Astu. Shwaha.
श्वः बुधवासरः
इदानीं वयं पुनः एतत् कुर्मः अत्र आसीत् अस्ति अपि भविष्यति क्रियापदमपि वदामः अस्तु अद्य मङ्गलवासरः अस्ति ह्यः
सोमवासरः आसीत्
परह्यः
रविवासरः आसीत्
रविवासरः आसीत्
समीचीनं प्रपरह्यः
शुक्रवारः
आसीत्
शनिवासरः
ओ ओके अयः
श्वः कः वासरः
बुधवासरः
अस्ति
भविष्यति
अनन्तरं परश्वः
परश्वः गुरुवासरः भविष्यति
प्रपरश्वः
शुक्रवासरः
भविष्यति
समीचीनम् अस्तु अनन्तरं अस्तु इदानीं वयं सप्तवाक्यानि उक्तवन्तः तस्य प्रश्नवाक्यानि वदामः अस्तु अत्र मङ्गलवासरः कदा अस्ति इदानीं अनन्तरं किम् उक्तवन्तः ह्यः सोमवासरः आसीत् तस्य प्रश्नः किं भवति
सोमवासरः कदा अस्ति
आसीत्
कदा आसीत्
अनन्तरं परह्यः किं वदामः
गुरुवासरः कदा आसीत्
परह्यः
परह्यः
रविवासरः कदा आसीत्? शनिवासरः
What is the meaning of the sentence, Bhagini? When did the last Saturday?
When was Saturday?
But you're also answering it in the question now, Bhagini. You're asking Parakhyaha Shanivasaraha Kada Asit?
No, we're not saying Parakhyaha.
Oh, okay.
I'm saying which day to say, and you're answering that. So the real question is, Soma Vasara Kada Asit? Ravi Vasara Kada Asit? That's all the question is.
Okay.
The answer will be, Para Hyaha or Hyaha, Soma Vasara Asit, Para Hyaha, Ravi Vasara Asit.
Okay, thank you.
Anantaram, Danim Bhavishyat Kalaha. श्वः किं भवति?
श्वः सन्डे
सोमवारः भविष्यति
न, तत्र मङ्गलवासर दत्तमस्ति.
बुधवारः
कदा भविष्यति?
भविष्यति अनन्तरं
गुरुवासरः कदा भविष्यति?
शुक्रवासरः कदा भविष्यति?
समीचीनं. प्रश्नाः सन्ति वा? अत्र इदानीम् इति पठामः. बृन्दा भगिनी प्रथमं वाक्यं पठतु.
पूर्वम् अहं बालः आसम्, इदानीं युवकः अस्मि.
समीचीनम्. अनन्तरं द्वितीयं वाक्यं चित्रा भगिनी.
इदानीं कः समयः? इदानीम् एकवादनम् अस्ति.
समीचीनम्. अनन्तरं लक्ष्मी भगिनी.
सैनिकाः प्रभाते शिबिरे आसन्, इदानीं युद्धक्षेत्रे सन्ति.
समीचीनम्. अनन्तरं राधा भगिनी.
सुरेशः पूर्वं केरले आसीत्, इदानीं काश्मीरे आसीत्.
समीचीनम्. एकनिमिषः. अनन्तरं एकनिमिषः. अस्तु. अनन्तरं बृन्दा भगिनी.
सरला प्रातः कार्यालयं गतवती, इदानीं नाट्यगृहं गच्छति.
अनन्तरं प्रिया भगिनी.
पूर्वं हस्तिनापुरं धृतराष्ट्रः पालितवान्, इदानीं युधिष्ठिरः पालयति. पश्चात् परीक्षित् पालयिष्यति.
एकनिमिषः, अहम् आगच्छामि.
Thank you.
क्षम्यताम् अस्तु पूर्वं हस्तिनापुरं धृतराष्ट्रः पालितवान् इदानीं युधिष्ठिरः पालयति पश्चात् परीक्षित् पालयिष्यति अस्तु समीचीनम् इदानीं कोष्टकस्य अत्र प्रश्नाः सन्ति वा ओके इदानीं कोष्टकस्य साहाय्येन अष्टवाक्यानि रचयत् अत्र अष्टवाक्यानि इति ते वदन्ति परन्तु अत्र नववाक्यानि अत्र सन्ति किमर्थमिति न जानामि परन्तु कुर्मः अस्तु अत्र किमस्ति चेत् अत्र वयं क्रियापदस्य वचनं दृष्ट्वा किञ्चित् कर्तुं शक्नुमः अस्तु अत्र स्मः इति अत्र दत्तमस्ति स्मः इति अस्ति चेत् वयं जानीमः वयं भवतः सहायकाः स्मः अस्तु इदानीं नास्मि न अस्मि इति अस्ति अस्मि अहम् इत्यस्य भवति अस्तु अनन्तरं स्मरसि इति दत्तमस्ति स्मरसि इति अस्ति चेत् त्वम् इदानीं तं स्मरसि अस्तु अनन्तरं यूयम् इति अस्ति चेत् यूयं जयं वदत अस्तु इदानीं सर्वे एकवचने अथवा बहुवचने प्रथमपुरुषे अस्ति अस्तु अत्र एकवचने पूजां करोति पाञ्चजन्यं धमति सज्जा अस्ति कृष्णः एव पाञ्चजन्यं
इदानीं पाञ्चजन्यं धमति कुन्ती इदानीं पूजां करोति
योद्धारः खिन्नाः सन्ति सेना धीरा भवन्तु न योद्धारः
सेना खिन्नाः सन्ति योद्धारः धीराः भवन्तु
No. They're both in Bahuvachanam. So it has to be Yodharaha Khinnaha Santi Yodharaha Thiraha Bhavantu and Sena Sajja Asti. Ekamcha.
Bhagini Sajja Ityu
Krishna
Bhagini Sena Sajja Asti. Ekamcha Vadami Bhagini Sajja Asti Yodharaha Thiraha Bhavantu. Asso. इदानीं वाक्यानि वदामः तत्र कृष्णः पाञ्चजन्यं
दमति
कुन्ती
पूजां करोति
सेना सज्जा अस्ति योद्धारः धीराः भवन्तु योद्धारः खिन्नाः सन्ति
अहं निद्रामग्नं नास्मि
वयं भवतः साहायकाः स्मः त्वं तं स्मरसि यूयं जयं वदत अस्तु प्रश्नाः सन्ति वा
नास्ति
न सन्ति चेत्
Bhagini, I had a question for that previous table. So, Sena is Bahuvachan, Bhagini. So, shouldn't be Sena Khinnaha Santi?
Sena is Ekvachanam.
Sena is
Ekvachanam.
Okay. And Yodharaha is also Ekvachanam, no, Bhagini?
No.
Yodharaha Sajja Asti?
न योद्धा योद्धा योद्धारो योद्धारः प्रकारान्तशब्दः
But Sena usually refers to a collective thing, no? A group of people.
Yes, but it is a group of people, so it's a group, right?
Oh, so one group. It's so it will be, okay. Totally. A group is singular.
Got it. Senaah iti asti chet, senaah dhiraah bhavantu iti vaktum shakumaha. अत्र यथोदाहरणं वाक्यानि रचयत पूर्वं दुर्योधनः हस्तिनापुरे आसीत् इदानीं कुरुक्षेत्रे अस्ति अस्तु इदानीम् अभिमन्युः
पूर्वः अभिमन्युः बालः
बाले
बालः
युद्धारम्भे अर्जुनः
खिन्नः आसीत्
इदानीं
सन्तुष्टः अस्ति
ऋषिकेशः
पूर्वे उत्तरप्रदेशे आसीत् इदानीं उत्तराखण्डे अस्ति
समीचीनम् इदानीं राधा भगिनी इतः पूर्वं
द्वापरयुगम् आसीत् इदानीं कलियुगम् अस्ति
समीचीनम् इदा अनन्तरं प्रिया भगिनी भीष्मः पूर्वं अस्तु चित्रा भगिनी
भीष्मः पूर्वं युद्धक्षेत्रे आसीत् इदानीं शरशय्या अस्ति शरशय्यायाम् अस्ति
पाण्डवाः बृन्दा भगिनी
पाण्डवाः पूर्वं वने आसीत् इदानीं इन्द्रप्रस्थे आसीत् अस्ति
अनन्तरं कर्णः इदानीं लक्ष्मी भगिनी
कर्णः पूर्वं कर्णः सामान्यः आसीत् इदानीं अङ्गराजः अस्ति
समीचीनम् अनन्तरं युयुत्सुः इति गोपाल् महोदय भवान् करोति वा
नो भगिनी ऐ एम् एक्चुली अ बिट् बिज़ी ऐ विल् बी लिसनिंग मोर टुडे
अस्तु चिन्ता मास्तु महोदय चित्रा भगिनी भवती एव करोति वा
युयुत्सुः कौरवपक्षीयः आसीत् इदानीं पाण्डवपक्षीयः अस्ति
समीचीनम् अस्तु अत्र प्रश्नाः सन्ति वा कुत्र सप्तमी अस्ति कुत्र सप्तमी न भवति तत्र प्रश्नाः सन्ति वा
Is there a rule for it, Bhagini?
No, atra. If it's a place, then you use Saptami. Atra Hastinapuram iti, it's a place. So, you use Saptami. Parantu atra Balaha iti, he was a child. He wasn't in child. If you said childhood, then he was in childhood. You could say that. But, he was a child, now he is a... अस्तु
सो ओन्ली फॉर आई थिंक सेम विल अप्लाई फॉर कर्णः आल्सो सामान्यः मींस ही वाज ऑर्डिनरी पर्सन एंड देन ही बिकेम अ किंग ऑफ द थिंग नो सो देयर इट विल सप्तमी विल नॉट कम नो
एंड देन हियर पांडवाः वने दैट्स अ प्लेस they were in the forest. In the forest, so saptami. Vane.
Now they are idani mindra prasthi asti.
That's also.
Yeah.
So even eighth, we are not the yuyutsu. We are not using saptami, na. Kaurava pakshiyah.
Five is also saptami. Bhishma, Purvam, Yuddhakshetra. That's also saptami.
There is saptami. Yuddhakshetra and Charashayayam.
So third one is Uttara Pradesh and
Uttarakhand.
Atra saptami nasti. Atra api nasti. Atra asti.
Here also Kali Yuga.
Sharashaya. Vane.
Vane. This is Saptami.
Samanya.
Not, it will not come. Here also it will not be there.
Asta.
Yeah.
Anantaram. Etat Grahapata Rupena. कुर्वन्तु इदानीम् इति अव्ययस्य प्रयोगं कृत्वा वाक्यानि रचयत इदानीं किम् अकुर्वत सञ्जय द्वाविंशतितमे पुटे अस्तु भूतकालः अस्तातुः अस्तातुः नाम अस्ति इत्यस्य रूपम् भूतकालः अस्तु इदानीम् अत्र लक्ष्मीभगिनी भवती अत्र पठतु
उच्चैः पठत जानीत च भूतकालः अस्तातुः एषः अर्जुनः अस्ति अज्ञातवासे एषः रुहन्नला आसीत् एषा द्रौपदी अस्ति अज्ञातवासे एषा सैरन्ध्री आसीत्
समीचीनम् अस्तु इदानीं एतदपि पठतु
युधिष्ठिरः अज्ञातवासे एषः कङ्कः आसीत् भीमः अज्ञातवासे एषः बल्लवः आसीत् नकुलः अज्ञातवासे एषः ग्रन्थिकः आसीत् सहदेवः अज्ञातवासे एषः तन्तिपालः आसीत्
समीचीनम् अस्तु इदानीम् आसीत् इत्यस्य रूपाणि वयं जानीमः आसीत् आसन् परन्तु सर्वाणि रूपाणि न जानीमः किल अस्तु वर्तमानकाले भूतकाले अत्र वयम् अस्ति इति इट्स् नाट् अ रेग्युलर् फार्म् अस्तु अपि वयम् अस्ति इत्यस्य रूपाणि सर्वदा उपयोगं कुर्मः दट्स् वै यू नीड् टु मेमरैस् दीस् फार्म्स् अस्तु सर्वाणि कालेषु सर्वेषु कालेषु तस्य रूपाणि वयं कण्ठस्थीकरणं कर्तव्यम् अस्तु अत्र वर्तमानकाले किं भवति अस्ति स्तः सन्ति अस्ति स्थः स्थ अस्मि स्वः स्मः अस्तु सर्वे एकवारं वदन्तु वृन्दाभगिनी भवती वदतु
वर्तमानकाले अस्थातु अस्ति स्तः सन्ति असि स्तः स्थ अस्मि स्वः स्मः
इदानीं भूतकाले
भूतकाले आसीत् आस्तम् आसन् आसीः आस्तम् आसत् आसम् आस्व आस्म
समीचीनम् अस्तु इदानीं चित्रा भगिनी
वर्तमानकाले अस्ति स्तः सन्ति असि स्तः स्थ अस्मि स्वः स्मः भूतकाले आसीत् आस्ताम् आसन् आसीः आस्तम् आस्त आसम् आस्व आस्म
समीचीनम् अस्तु. अनन्तरं लक्ष्मी भगिनी.
वर्तमानकाले अस् धातु अस्ति स्तः सन्ति असि स्तः स्त अस्मि स्वः स्मः. भूतकाले आसीत् आस्ताम् आसन् आसीः आस्तम् आस्त आसम् आस्व आस्म.
समीचीनम् अस्तु. अनन्तरं राधा भगिनी.
अस् धातोः रूपाणि वर्तमानकाले अस्ति स्तः सन्ति असि स्तः स्तः स्त अस्मि स्वः स्मः. भूतकाले आसीत् आस्ताम् आसन् आसिः आस्तम् आस आसम् आस्व आस्म.
समीचीनम् अस्तु. प्रश्नाः सन्ति वा अत्र? अस्तु, न सन्ति चेत् अग्रे गच्छामः.
Begin, we have learned this Vartamanakale, the Bhutakale is the new one, right?
We have not done Bhutakale before.
Madhyama Purusha is little different. Asihi.
Asihi, Astam,
Astam.
Bhagini, is there any story or some sentences where we can find this Bhutkal and the Vartamankal words in used in sentences?
I'll send a katha with the homework that you can just read through and see.
See if we can find all of those. Yeah, yes.
I'll see if I can find a katha.
Okay. Thank you.
Particularly the
Bhutkal,
Bhagini, because...
Yeah, Bhutkal.
Or else I'll just write a simple katha, it'll be easy. Only ask
me. Yeah, that's
good. I'll just write on if. Okay. Astu atra yato daharanam riktasthanani purayata. Astu saha vapatuhu asit tau vapatuhu astam te vapatavaha asan. Astu tvam kim bhavati?
Vapatuhu asi
hi.
Asi hi.
युवाम्
वाक्पटु आस्तम् यूयं वाक्पटु आसन् आसत् आस्तम्
अहं
वाक्पटुः आसम् आवां वाक्पटुः आस्व वयं वाक्पटुः आस्म.
अस्तु, एकवारं पुनः पठामः. अत्र किं भवति चित्रभगिनी, भवती एकवारं सर्वाणि रूपाणि पठतु.
सः वाक्पटुः आसीत् तौ वाक्पटुः आस्तां ते वाक्पटवः आसन् त्वं वाक्पटुः आसीः त्वं युवां वाक्पटु आस्तं यूयं वाक्पटवः आस्त अहं वाक्पटुः आसाम् आवां वाक्पटु आस्व वयं वाक्पटवः आस्म.
समीचीनम् अस्तु. इदानीम् अत्र वयं वाक्यानि पठामः. अस्तु, अत्र फस्ट् सेट् आफ् सेण्टेन्सेस् बृन्दाभगिनी केन् रीड्, सेकेण्ड् सेट् राधाभगिनी केन् रीड्, एण्ड् थर्ड् लक्ष्मीभगिनी केन् रीड्. अस्तु अस्तु.
भूत वर्तमान एण्ड् भूतकाल भगिनि.
बोत् बोत् वर्तमानकालः. सो फस्ट् इस् द वर्तमानकाले. युधिष्ठिरः नगरं गच्छति. युधिष्ठिरः नगरं गतवान्.
युधिष्ठिरः नगरं गच्छति. युधिष्ठिरः नगरं गतवान्. वर्तमानकाले दुर्योधनः अपि नगरं गच्छति दुर्योधनः अपि नगरं गतवान् तौ सर्वान् नगरजनानां पश्यतः तौ सर्वान् नगरजनानां दृष्टवन्तौ तौ सर्वैः मिलतः तौ सर्वैः मिलितवन्तौ युधिष्ठिरः एकमपि दुर्जनं न प्राप्नोति युधिष्ठिरः एकमपि दुर्जनं न प्राप्तवान् दुर्योधनः एकमपि सज्जनं न प्राप्नोति दुर्योधनः एकमपि सज्जनं न प्राप्तवान् यथा दृष्टिः अस्ति तथा दर्शनं यथा दृष्टिः आसीत् तथा दर्शनम्
Here, for Gatavan, can we also use Agachan? Yudhishthiraha Nagaram Agachan? Instead of Gatavan?
Punaha Vadatu Bhagini?
We are saying, for in Bhutakali, we are saying Yudhishthiraha Nagaram Gatavan. Can we say Yudhishthiraha Nagaram Agachan?
Yeah, but we won't study that type of Bhutakal.
They're not learning. I just want to see. Agachan is also a Bhutakal sana for that. Yeah, okay. Sayandri.
Radha Bhagni. Sayandri.
Sayandri Sevika Asti. Sayandri Sevika Asit. Sa. राज्ञी सेवते सा राज्ञीं सेवितवती सा केशप्रसादनं करोति सा केशप्रसादनं कृतवती सा प्रतिफलं न इच्छति सा प्रतिफलं न इष्टवती सा नम्रतया तिष्ठति सा नम्रतया स्थितवती
समीचीनं लक्ष्मी भगिनी
त्वं देशभक्तिगीतं गायसे त्वं देशभक्तिगीतं गीतवती युवां सर्वदा सत्यं वदतः युवां सर्वदा सत्यम् उक्तवन्तौ यूयं भजत्वे यूयं भक्तवन्तः अहं भुञ्जे अहं भुक्तवान्
दो लास्ट आत्मनेपदी वर्ड्स
राइट यस राइट दैट इज जस्ट फॉर एग्जांपल वी वोंट लर्न हाउ टू डू दैट अस्तु
व्हाट डस भुञ्जे मीन भगिनी
किं भगिनि
भुञ्जे द लास्ट सेंटेंस व्हाट डस दैट मीन
इत्युक्ते तस्य ईट् अथवा यूस् इति भवति
नो केन् यू रिपीट्
ईट्
ईट्
खादति इत्यस्य अर्थः
धन्यवादः इन् सेण्टर् से अहं भोजनं भुञ्जे
आम् अस्तु एतत् कुर्मः वृन्दा भगिनी सर्वे त्रीणि त्रीणि क्रियापदानि कुर्वन्तु अस्तु वृन्दा भगिनी भवती आरम्भं करोतु
पठति पठितवान् पठितवन्तौ पठितवन्तः इच्छति इष्टवान् इष्टवन्तौ इष्टवन्तः करोति कृतवान् कृतवन्तः
समीचीनं. चित्रा भगिनी
गायति, गीतवान्, गीतवन्तौ, गीतवन्तः. धरति, धृतवान्, धृतवन्तौ, धृतवन्तः. भजति, भक्तवान्, भक्तवन्तौ, भक्तवन्तः.
भज, भज, भजवान् भगिनि.
ओ नै, यस् गिवन् द बहुवचन इस् भक्तवन्तः.
ओ ओके,
भक्तवान्, भक्तवन्तौ, भक्तवन्तः.
इदानीं लक्ष्मी भगिनी भवती वदतु.
क्रीडति, क्रीडितवान्, क्रीडितवन्तौ, क्रीडितवन्तः. नयति, नीतवान्, नीतवन्तौ, नीतवन्तः. गर्जति, गर्जितवान्, गर्जितवन्तौ, गर्जितवन्तः. भ्रमति, भ्रमितवान्, भ्रमितवन्तौ, भ्रमितवन्तः. शृणोति, श्रुतवान्, श्रुतवन्तौ, श्रुतवन्तः. भगिनि
समीचीनम्. अनन्तरं राधा भगिनी.
तपति, तपतवान्, तपतवन्तौ,
तप्तवन्तौ, तप्तवन्तः.
बोधयति, बोधितवान्, बोधितवन्तौ, बोधितवन्तः. लिखति, लिखितवान्, लिखितवन्तौ, लिखितवन्तः. हसति, हसितवान्, हसितवन्तौ, हसितवन्तः. नमति, नतवान्, नतवन्तौ, नतवन्तः. ददाति, दत्तवान्, दत्तवन्तौ, ददत.
अत्र स्थगयतु. इदानीं बृन्दा भगिनी.
पृच्छति, पृच्छवान्, पृच्छवन्तौ, पृष्टवन्तौ, पृष्टवन्तः.
अनन्तरं
भृते,
आत्मनेपदी,
उक्तवान्, उक्तवन्तौ, उक्तवन्तः. ईक्षते,
इदानीं चित्रं
ईक्षते. ईक्षते विल् बि ईक्षितवान्, ईक्षितवन्तौ, ईक्षितवन्तः. लभते, लब्धवान्, लब्धवन्तौ, लब्धवन्तः. आस्ते, आसितवान्, आसितवन्तौ, आसितवन्तः. युध्यते, युद्धवान्, युद्धवन्तौ, युद्धवन्तः.
समीचीनम्. अत्र प्रश्नाः सन्ति वा? एतत् गृहपाठरूपेण कर्तुं शक्नोति वा? स्त्रीलिङ्गरूपाणि. अस्तु, गृहपाठ अस्ति अत्र. अत्र पञ्चमः अभ्यासः. इदानीम् इति अभ्यासस्य प्रयोगं कृत्वा त्रीणि वाक्यानि रचयत. अनन्तरं
स्त्रीलिङ्गस्य.
अस्तु अस्तु, अत्र स्थगयामः. वयं शान्तिमन्त्रं वदामः. लक्ष्मी भगिनी.
आं भवामि. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति, शान्ति, शान्तिः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति, शान्ति, शान्तिः. ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः 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 हरिः ॐ श्रीगुरुभ्यो नमः
धन्यवादः भगिनी नमस्कारः